आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठ योग विद्या विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छो रथिरोहिणीव। गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः कूर्मासनं भवेदेतत् इति योगविदो विदुः। कथमस्ति? गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः कूर्मासनं भवेत् एतत् इति योगविदः विदुः इति पदच्छेदः भवति। अत्र अन्वयार्थदर्शनात् प्राक् अस्माभिः किं करणीयम्? पदार्थः प्रथमं द्रष्टव्यः। गुदम् इति शब्दस्य कः अर्थः इति चेत् एनस् इति सः भागः गुदम् इति शब्देन उच्यते। नाम मलविसर्जनद्वारमस्ति किल, तदेव गुदम् इति उच्यते। निरुध्य गुल्फाभ्यां, निरुध्य इति चेत् तस्य निरोधनं करणीयम् अथवा तदुपरि प्रेशर् करणीयम्। गुल्फाभ्यां, गुल्फशब्दस्य कः अर्थः इति चेत् आङ्कल्। गुल्फशब्दस्य आङ्कल् इति उच्यते किल, तदेव गुल्फशब्द। गुल्फाभ्याम् इति चेत् बै द टु आङ्कल्स् इति आङ्कल् द्वयं, तत् ताभ्यां द्वाभ्यां गुदं निरुध्य गुदस्य निरोधः करणीयः व्युत्क्रमेण। व्युत्क्रमेण इति चेत् इन्वर्टेड् इति, इन्वर्टेड् पोसिशन्, तत् व्युत्क्रमेण इत्यर्थः भवति। समाहितः तत्र तथा भवितव्यं, स्थातव्यं कूर्मासनम्। एतस्य नाम कूर्मासनं भवेत् एतत्, एतत् कूर्मासनं भवेत् इति। इत्येवं योगविदः, ये योगं जानन्ति ते योगविदः विदुः, ते एतत् एवं जानन्ति। अनेन क्रमेण कूर्मासनं भवेत् इति योगविदः विदुः। अन्वयः कथम्? गुल्फाभ्यां गुदं निरुध्य। गुल्फद्वयमस्ति, किं करणीयम्? गुदस्य मलविसर्जनद्वारस्य निरोधः करणीयः, नाम प्रेशरैस् करणीयं तत्। अनन्तरं तथा पाद तत्र गुल्फं मलविसर्जनद्वारे संस्थाप्य यथा शिरः भूमिं स्पृशेत् तथा स्थातव्यं, व्युत्क्रमेण समाहितः। व्युत्क्रमः नाम यथा शिरः भूमिं स्पृशति, पादद्वयम् आदौ दण्डवत् प्रसारणीयम् उपविष्टस्थितौ, अनन्तरं गुल्फद्वयं तत् शरीरस्य पादद्वयमपि तत्र पुटीकरणीयं, पुटीकृत्य तत्र बुधस्य निकटं स्थापनीयं, तदुपरि वस्तुतः उपवेष्टव्यम्, अनन्तरं शिरः भूमौ, एवं या स्थितिः अस्ति तत् कूर्मासनम् इति उच्यते। नाम तत्र पृष्ठभागः कथमस्ति, कथं भवति इति चेत् तत्र कूर्मस्य शेल् अस्ति किल, तद्वत् भवति शरीरं। तत्र विजुवलैज् कर्तुं शक्यते वा, भावनं कर्तुं शक्यते वा मनसि? कूर्मस्य यथा पृष्ठभागः भवति, तन्नाम एकं शेल् भवति किल, तथा यदि शिरः भूमौ स्थाप्यते, सा अस्माकं मुदुग् तत्र पृष्ठभागः अस्ति किल, तेनैव क्रमेण एकं मौण्ड् इव भवति, तत् कूर्मवद् अस्ति इति कारणेन तत् कूर्मासनं भवति इति योगविदः वदन्ति। तत्र कोऽपि विशेषः नास्ति। अग्रे अग्रिमं कुक्कुटासनं संस्थाप्य जानूर्वोरन्तरे करौ निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् इति. पदच्छेदः कथम्? पद्मासनं तु संस्थाप्य करौ जानूर्वोः अन्तरे निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्. एतत् बहु सरलम्. पद्मासनं तु संस्थाप्य, पद्मासनं प्रथमं करणीयम्, अनन्तरं जानु ऊरु. अद् आरम्भे एकम् आसनं दृष्टवन्तः किल, जानूर्वोः अन्तरे इति. कस्मिन् श्लोके जानूर्वोरन्तरे इति?
स्वस्तिकासनस्य.
स्वस्तिकासने अपि तत्र जानूर्वोः अन्तरे पादतलं स्थापनीयं. कुत्र? स्वस्तिकासने. अत्र पद्मासनस्थितिं प्रत्यागत्य जानूर्वोः अन्तरे किं निवेशनीयम्? करौ निवेशनीयौ. पद्मासनं तु संस्थाप्य जानूर्वोः अन्तरे करौ निवेश्य. जानूर्वोः अन्तरे करौ निवेश्य. करौ कुत्र स्थापनीयौ? निवेश्य भूमौ संस्थाप्य. करौ जानूर्वोः अन्तरे प्रवेश्य भूमौ संस्थाप्य अनन्तरं किं करणीयं? व्योमस्थं शरीरं किं करणीयं? नाम करद्वयं भूमौ सम्यक् दृढं सम्यक् स्थापितं. करद्वयस्य बलेन, करद्वयेन भूमिः भूमेः आलम्बनं कृतम्. इदानीं शरीरम् अवशिष्टं शरीरं किं करणीयम् इति चेत् व्योमस्थं करणीयं. नाम शरीरं करद्वयस्य बलेन उत्थापनीयम्. एतत् मनसि भावयितुं शक्यते वा?
सम्यक्
पद्मासनं कृत्वा जानूर्वोः अन्तरे करद्वयमपि निवेश्य करद्वयं भूमौ संस्थाप्य किं करणीयं? शरीरं व्योमस्थं करणीयं. व्योमशब्दस्य आकाशः. नाम आकाशे शरीरम् उन्नेतव्यम्. शरीरस्य कः भागः भूमिं स्पृशति? करद्वयम् एव. एतदेव किम् आसनम् इत्युच्यते? कुक्कुटासनम्. किमर्थम् एतत् कुक्कुटासनम् इत्युच्यते? ऊहितुं शक्यते वा?
कुक्कुटस्य पादद्वयं
सम्यक्
यथा भूमिं स्पृशतः तद्वदेव कुक्कुटासन साधकस्य करौ अपि भूमिं स्पृशतः.
अन्यत् कुक्कुटस्य पादौ यदि पश्यति तदा तत्र अङ्गुलीनां प्रसारणं भवति. एवमेव अत्रापि तद् विशिष्य अत्र न विवृतं, श्लोके नोक्तं, किन्तु तत्र किं करणीयमिति चेत् तत्र अङ्गुलीनां प्रसारणमपि करणीयं, तदा कुक्कुटवत् भवति. अन्यत् प्रसार्य स्थाप्यते चेत् इतोपि स्थिरता मिलति आसने. अङ्गुलीनां प्रसारणपुरस्सरं शरीरस्य उत्थापनं यदि क्रियते तदा कुक्कुटासने धैर्याधिक्यं भवति. अङ्गुलीनां योजनेन यदि उत्थापनं क्रियते, एकं तत्र किं वदामः, कूर्परभागे वेदना भवति. कूर्परशब्दस्य एल्बो इत्यर्थः. तत्र वेदना भवति. अन्यत् अङ्गुलीनां प्रसारणं कृत्वा यदि स्थाप्यते तत्र कूर्परभागे वेदना निवारयितुं शक्या, किञ्च तत्र स्थैर्यमपि अधिकं मिलति. तत्वदपि दृश्यते. वस्तुतः कुक्कुटस्य अङ्गुलीनां सादृश्यमपि तत्र द्रष्टुं शक्यते. अतः एतत् कुक्कुटासनम् इत्युच्यते. अत्र किमपि पदम् अनवगतम् इत्यस्ति वा? पद्मासनं संस्थाप्य करौ जानु ऊर्वोः. जानु शब्दस्य नी इत्यर्थः, ऊरु शब्दस्य
थै.
थै इत्यर्थः तयोः अन्तरे, तयोः मध्ये निवेश्य भूमौ संस्थाप्य अनन्तरं व्योमस्थं शरीरं व्योमस्थं करणीयम्. एतत् कुक्कुटासनम्. अग्रे इदानीम् अग्रिममासनम् उत्थानकूर्मकासनम् इत्युच्यते. उत्थानकूर्मकासनम् अथवा उत्थानकूर्मासनम् इत्यपि उच्यते. तत्र कप्रत्ययम् अन्तरापि उच्चार्यते. उत्थानकूर्मकासनम् अथवा उत्थानकूर्मासनम् इति पूर्वं कूर्मासनं दृष्टवन्तः. अधुना उत्थानकूर्मासनं द्रष्टुं शक्नुमः. उत्थानम् इति चेत् कः अर्थः इति चेत् लयिङ्ग् आन् द बेक् इत्यर्थः. अग्रे शवासनस्य विषये अपि आगच्छति. उत्थानं शववद् भूमौ शयनं तत् शवासनम्. शवासने अस्माभिः कथं शयनं क्रियते? उत्थानं शयनं क्रियते. नाम अधोमुखतया न तद्विपरीतम् आकाशमुखतया अस्माभिः शयनं क्रियते. सत्यं वा?
सत्यम्.
तदेव उत्थानम् इत्यर्थः. यदि कश्चित् कूर्मः उत्थानतया स्थाप्यते तदा तद् मनसि धारयितुं शक्यते वा तत् चित्रं?
पृष्ठभागः तदा किं भूमिं स्पृशति.
तस्य शेल् अधः भवति, तस्य पादाः उपरि भवन्ति. तदेव उत्थानकूर्मकं. वस्तुतः उत्थानकूर्मः कथं भवति तथा भवति. तत् सारूप्यम् एतद् आसनं भजते. तस्मात् इदं किम् आसनम्?
उत्थानकूर्मासनम्.
उत्थानकूर्मासनं कथं करणीयं तस्य विवरणं पश्यामः. कुक्कुटासनबन्धस्थो द्रोर्भ्यां सम्बद्ध्य कन्धरां भवेत् कूर्मवदुत्थानः एतदुत्थानकूर्मकम् इति. कथं पदच्छेदः भवति? पदच्छेदं प्रयतते वा?
कुक्कुटासनबन्धस्थः द्रोर्भ्यां सम्बद्ध्य कन्धरां भवेत् कूर्मवत् उत्थानः एतद् उत्थानकूर्मकम्.
सम्यक्. तर्हि अत्र कुक्कुटासनबन्धस्थः इति प्रथमं पदं. नाम आसनबन्धः नाम आसनस्य बन्धनम्, आसनस्य स्थापनम्. आसनस्य बन्धनं करणीयं नाम आसनस्य स्वरूपम् आवाहनीयं, स्वीकरणीयं. कस्य आसनस्य स्वरूपं स्वीकरणीयं? कुक्कुटासन आसनबन्धस्य. तत् कुक्कुटासनस्य स्वरूपं प्रथमं तत् प्रति प्राप्तव्यम्. तस्मिन् स्थितौ आगत्य कुक्कुटासनबन्धस्थः दोर्भ्यां दोर्भ्याम् इति शब्दस्य कः अर्थः?
भुजाभ्यां
सम्बद्ध्य कन्धरां. कन्धरशब्दस्य कः अर्थः?
ग्रीवा.
ग्रीवाप्रदेशः. ग्रीवाप्रदेशस्य सम्बन्धः कल्पनीयः. काभ्यां?
दोर्भ्यां.
अनन्तरं कूर्मवद् उत्थानः भवेत्. एवं सम्बद्ध्य अनन्तरं किं करणीयं? कूर्मवद् उत्थानः भवेत् एतत् उत्थानकूर्मकम्. अस्य विवरणं करोमि. कुक्कुटासनं कथं करणीयम् इत्युक्तं, प्रथमं पद्मासनं करणीयं. सत्यं वा? प्रथमं पद्मासनं करणीयं. पद्मासनस्थितिं प्राप्य जानूरोः अन्तरे किं प्रवेशनीयम्?
हस्तौ
करौ प्रवेशनीयौ. अग्रे कुक्कुटासनं प्रति किं करणीयं? भूमौ संस्थाप्य इत्युक्तं किल. तद् करौ भूमौ न संस्थापनीयौ. तावत्पर्यन्तमागत्य तन्नाम पद्मासनं कृत्वा जानूरोः अन्तरे करौ निवेश्य तौ करौ कुत्र न स्थापनीयौ? भूमौ न स्थापनीयौ. किं करणीयं तर्हि तयोः करयोः इति चेत्, दोर्भ्यां नाम तौ करौ ताभ्यां कराभ्यां ग्रीवाभागः ग्रहीतव्यः इति. तर्हि किं करणीयम् इति चेत्, पद्मासने तत्र पद्मासने जानूरुभागौ तत्र भूमिस्पृशतः उत्थानकूर्मकासनकरणार्थं किं करणीयं? पादद्वयं परि आनेतव्यं किल. हस्ताभ्यां यदि ग्रीवाभागः ग्रहीतव्यः तदपि जानूरुभ्यां हस्तौ प्रवेश्य अनन्तरं किं करणीयं? तर्हि हस्ताभ्यां तत्र कन्धरां गृह्णाति, इतोपि उपविष्टस्थितौ एव अस्ति सः. अग्रे किं करणीयं? तत्र स्वपृष्ठभागे शयनीयम् इति. वन् हेस् टु लै आन् हिस् बेक् नौ. ऊर्मवत् उत्थानः भवेत्. नाम कुक्कुटासनं करणीयं, नाम पद्मासनं करणीयं, जानूर्वोः अन्तरे करौ प्रवेशनीयौ. प्रवेशिताभ्यां कराभ्यां ग्रीवाभागः ग्रहीतव्यः. अनन्तरं तत्र पृष्ठस्य भूमिस्पर्शः करणीयः, नाम उत्थानशयनं करणीयम्. एवम् उत्थानशयनम्, उत्थानशयनम् इति चेत् किम् इति अवगतं वा?
आम्, पृष्ठभागः भूमिं
भूमिं स्पृशेत्, तद् उत्थानशयनं. समीचीनम्. उत्थान इति महाप्राणः न अल्पप्राणः, ज्ञातं वा? अतः संस्कृते तदेव उच्यते. अल्पप्राणमहाप्राणयोः महदन्तरं भवति अर्थे. उत्थानकूर्मकम् इत्यस्य कोऽपि अर्थः एव नास्ति. उत्थानकूर्म इति वदति चेत् अर्थः भवति. A tortoise lying on its back. तत् उत्थानकूर्मकं भवति. बन्धुशब्दस्य कान्फिगरेशन् इत्यर्थः. कुक्कुटासन कान्फिगरेशन् मध्ये प्रथमम् आगत्य शरीरं तथा बद्ध्वा तत्र बन्धनमेव क्रियते किल. कस्य बन्धनं क्रियते? हस्तः फ्री भवति वा तत्र? न भवति. पादयोः अपि तत्र बन्धनं जातं. पद्मासनं कृत्वा पादयोः बन्धः प्राप्तः. अनन्तरं जानुर्वोः करौ प्रवेश्य करयोः अपि बन्धनं जातम्. दिस् इस् अ कैण्ड् आफ् लाकिङ्ग् अस्ति सर्वत्र. पादयोः अपि लाक् अस्ति, हस्तयोः अपि लाक् अस्ति. एतादृशबन्धः एषः. अग्रे कश्चन बन्धः, जालन्धरबन्धः, उद्यानबन्धः, मूलबन्धः इति भवति. सः बन्धः भिन्न. अत्र लाकिङ्ग् द बाडी इन् द पोसिशन् आफ् कुक्कुट, इन् द फार्म् आफ् कुक्कुट इति अर्थः. तावान् एव अर्थः अत्र. अतः किं प्रकरणशः अर्थः ज्ञातव्यः. पुनः एतेषु दिनेषु किं वदन्ति जनाः? संस्कृतज्ञानं नावश्यकं, सर्वमपि अनुवादद्वारा वयं पठितुं शक्नुमः इति वदन्ति. अत्रत्य बन्धस्य, जालन्धरबन्धस्य च समान ट्रान्स्लेशन् क्रियते चेत् अनर्थ एव भवति किल. अतः अत्र बन्धशब्दस्य ओन्लि लाकिङ्ग् द पार्ट्स् आफ् द बाडी इति अर्थः वक्तव्यः. तत्र भिन्न अर्थः अस्ति बन्धस्य. जालन्धरबन्धः तत्र प्राणसञ्चारसमये शरीरावयवानां, विशिष्टानां शरीरावयवानां तत्र सङ्कोचभावः एव बन्धः तत्र भवति. जालन्धरबन्धः, उड्यानबन्धः, मूलबन्धः इति. अतः प्रकरणशः अर्थकथनं तत् शास्त्रं प्रविश्यैव अवगन्तुं शक्यते. तत्र भाषाज्ञानं, तत्र प्रकरणादीनां परिज्ञानं तत्सर्वम् आवश्यकं भवति. भवतु, अग्रे किमस्ति? इदानीम् अग्रिममासनम् धनुरासनम्. पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि धनुराकर्षणं कुर्यात्. धनुरासनमुच्यते. एकवारं श्लोकं पठतु.
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि धनुराकर्षणं कुर्यात् धनुरासनमुच्यते.
धनुरासनम् उच्यते. पदच्छेदं करोतु.
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि धनुः आकर्षणं कुर्यात् धनुरासनम् उच्यते.
अस्तु, अत्र पादाङ्गुष्ठौ इति पदं प्रयुक्तमस्ति. पादः, अङ्गुष्ठशब्दस्य कः अर्थः?
तम्ब.
अङ्गुष्ठशब्दस्य सामान्यतः तम्ब् इति अर्थः भवति. अत्र पादाङ्गुष्ठशब्दस्य कः अर्थः?
बिग् टो.
पाद अङ्गुष्ठौ इति कारणेन अङ्गुष्ठौ द्विवचनम् अस्ति. तदा किं करणीयं? पादाङ्गुष्ठौ, द्वौ पादाङ्गुष्ठौ स्तः. पाणि शब्दस्य कः अर्थः?
हस्तः.
हस्ताभ्यां पाणिभ्यां गृहीत्वा. तर्हि किं करणीयं? पादौ प्रसारणीयौ, अनन्तरं प्रसारितपादयोः किं भवति द्वौ अङ्गुष्ठौ पादाङ्गुष्ठौ भवतः तौ पादाङ्गुष्ठौ किं करणीयं पाणिभ्यां गृहीतव्यौ पाणिः हस्तः हस्ताभ्यां गृहीतव्यं तावदेव आसनं नैव इतोपि अस्ति श्रवणावधि श्रवणशब्दस्य कः अर्थः श्रूयते इति श्रवणं न अत्र ल्युट् प्रत्ययस्य करणार्थे व्युत्पत्तिः भवति श्रूयते अनेन इति श्रवणम् अनेन श्रूयते येन श्रूयते तत् किं भवति श्रवणम्
श्रोत्रार्थे
भावार्थे ल्युट् प्रत्ययः भवति करणार्थे ल्युट् प्रत्ययः भवति इतोपि अनेकेषु अर्थेषु ल्युट् अधिकरणार्थेपि कुत्रचित् अस्ति ल्युट् प्रत्ययः अत्र श्रवणशब्दस्य कः अर्थः हियरिङ्ग् इति न अर्थः हियरिङ्ग् येन भवति श्रूयते अनेन इति श्रवणं करणव्युत्पत्तिः इति उच्यते करणार्थे ल्युट् प्रत्ययः श्रवणशब्दस्य कथं व्युत्पत्तिः
श्रूयते अनेन
श्रूयते अनेन इति श्रवणं श्रवणावधि इति चेत् कर्णपर्यन्तम् इत्यर्थः अवधि नाम पर्यन्तम् इत्यर्थः कर्णपर्यन्तं किं करणीयं धनुराकर्षणं कुर्यात् नाम धनुरिव धनुषः इव आकर्षणं धनुराकर्षणं तद् एकं पदं धनुराकर्षणं समस्तं पदं धनुषः इव आकर्षणं धनुराकर्षणं तत् कुर्यात् इति तद् धनुरासनम् उच्यते नाम सामान्यतः पाठ्यमान धनुरासनम् एकमस्ति यत्र यथा उदरं भूमिं स्पृशेत् नाम उत्तानविरुद्धम् अधःशिरस्कतया शयनं नाम ललाटः यथा भूमिं स्पृशेत् तथा शयनं कृत्वा तत्र पादद्वयं हस्ताभ्यां गृहीत्वा धनुर्वत् स्थितिः अस्ति अन्यदेकं धनुरासनम् एतत् भिन्नमेकं धनुरासनम् एतत् किं करणीयं पादौ प्रसारणीयौ तत्रत्य पादयोः विद्यमानौ द्वौ पादाङ्गुष्ठौ पाणिभ्यां ग्रहीतव्यौ अनन्तरं धनुषः इव आकर्षणं करणीयं धनुषः इव आकर्षणं कथं करणीयम् इति चेत् इदानीं वामपाणिना वामपादाङ्गुष्ठः गृहीतः दक्षिणपाणिना दक्षिणपादाङ्गुष्ठः गृहीतः सत्यं वा
सत्यम्
अनन्तरं किं करणीयं दक्षिणपाणिना दक्षिणपादाङ्गुष्ठः गृहीतः किल तत् कर्णपर्यन्तम् आनेतव्यं दक्षिणकर्णपर्यन्तं दक्षिणपाणिना गृहीतः दक्षिणपादाङ्गुष्ठः आनेतव्यः तदेव धनुराकर्षणम् तर्हि वामपादाङ्गुष्ठः वामपाणिः किं करोति तत्रैव यथावत् तत्रैव तिष्ठति तौ तत् गृहीतव्यमेव वामपाणिना वामपादाङ्गुष्ठः गृहीतव्यः तत् तथैव तिष्ठति इदानीं दक्षिण पाणिना गृहीतः पादाङ्गुष्ठः दक्षिणकर्णपर्यन्तम् उन्नीय आनेतव्यः एवम् एतद् पुनः प्रसारणीयम् अनन्तरं वामपादस्य वामपादाङ्गुष्ठम् आकृष्य वामकर्णावधि तस्य आनयनं करणीयम् अवगतं वा
अस्मिन् आसने मेरुदण्डः ऋजुः एव भवेत्
मेरुदण्डः ऋजुः न भवति
न भवति
भवितुं नार्हति भवितुं नार्हति यतोहि तत्र ऋजुः स्थापयितुं प्रयत्नः करणीयः ऋजुः स्थाप्यते चेत् कर्णपर्यन्तं नागच्छति यत्र ऋजुकायता भवेत् तत् श्लोके एव उच्यते ऋजुकाय समासीनः इति अत्र दिस् इस् एसिमेट्रिकल् सिमेट्रिकल् एसिमेट्रिकल् इत्यस्ति नाम शरीरस्य एकः भागः कार्यं करोति अतः देर् इस् अ पार्शियल् ट्विस्ट् सिमेट्रिकल् चेत् नाम स्ट्रैट् स्पैन् इत्यादि वक्तुं शक्यते किञ्चित् असिमेट्रि अस्ति इति कारणेन किञ्चित् स्पैन् बेण्ड् भवति अन्यत् अत्र विशिष्य ओपनिंग अप ऑफ द पेल्विक रीजन तत्र विशिष्य अवधानं भवति तदा किं भवति इति चेत् सम्यक् दीर्घकालं उपवेष्टुं शक्यते स्थिर ध्यानार्थं सः भागः दृढीकृतः भवति तदर्थम् एतत् सर्वं क्रियते फोकस् तत्र अस्ति अस्य आसनस्य तस्मात् एतत् धनुरासनम् उच्यते आसनस्य स्वरूपं गृहीतं वा एतद् आसनम् आकर्णधनुरासनम् इत्यपि उच्यते पूर्वं मया उक्तं किल तत् नाम अधोललाटतया शयनं कृत्वा पादद्वयस्य आकर्षणं क्रियते किल तद् केवलं धनुरासनम् एतत् आकर्णधनुरासनम् इति विशेष्य कथयन्ति केचित् अस्तु अग्रिमम् एकम् आसनमस्ति अत्यन्तं विशिष्टं किञ्चित् क्लिष्टं तस्य विवरणमपि किञ्चित् जागरूकतया श्रोतव्यं मत्स्येन्द्रासनम् इति नाम पूर्वतनासनस्य किमर्थं धनुरासनमिति उक्तं धनुषः आकर्षणमिव पाणिना पादस्य आकर्षणं कृतं किल तस्मात् तद्धनुरासनम् इत्युक्तम् अधुना मत्स्येन्द्रासनम् इति उच्यते एतदासनं किमर्थं मत्स्येन्द्रासनम् इति चेत् विशिष्य तत्र श्लोके एव अस्ति श्रीमत्स्यनाथोदितमासनम् एतदासनं विशिष्य श्रीमत्स्यनाथः एव उपदिष्टवान् प्रोबब्लि तस्यैव इन्वेन्शन् एतदासनं सः योगी सः एव एतस्य आविष्कारं कृतवान् एतस्य आसनस्य तस्मात् तस्य नाम्ना एव एतदासनं तत्र तस्य नामधेयं कृतमस्ति भवतु तदेव अस्य आसनस्य नाम्नः तात्पर्यम् अधुना श्लोकः किञ्चित् भिन्नवृत्ते अस्ति वामोरुमूलार्पितदक्षपादम् जानोर्बहिर्वेष्टितवामपादम् प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनम् स्यात् पुनरपि उच्चारयामि वामोरुमूलार्पितदक्षपादम् जानोर्बहिर्वेष्टितवामपादम् प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनम् स्यात् एकवारं श्लोकं पठतु
वामोरुमूलार्पितदक्षपादम् जानोर्बहिर्वेष्टितवामपादम् प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनम् स्यात्
पदच्छेदं करोतु
वामोरुमूलार्पितदक्षपादम् जानोः बहिः वेष्टितवामपादम् प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितम् आसनम् स्यात्
पुनः एकवारं पदच्छेदं करोतु
वामोरुमूलार्पितदक्षपादम् जानोः बहिः वेष्टितवामपादम् प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितम् आसनम् स्यात्
पूर्वमेव यथा उक्तम् श्रीमत्स्यनाथोदितम् मत्स्यनाथः नाथसम्प्रदाये प्रमुखः कश्चन गुरुः तेन उदितम् कथितम् तं भाषितम् उदितम् जल्पितम् आख्यातम् अभिहितम् लपितम् इति अमरः तं भाषितम् उदितम् जल्पितम् आख्यातम् अभिहितम् लपितम् इत्येतत् सर्वं कस्मिन् अर्थे
उक्तम्
कथितम् इत्यस्मिन् अर्थे अथवा उक्तम् इत्यस्मिन् अथवा उदितं नाम उक्तम् इत्येव अर्थः श्रीमत्स्यनाथेन उदितं कथितम् आसनं स्यात् किं तत् कथं करणीयम् अत्र पश्यामः अत्र पदानां परिचयं प्रथमं पश्यामः वामभागः ज्ञायते ऊरुशब्दः ज्ञायते अत्र ऊरुमूलम् इति एकं पदमस्ति वामोरुमूल वामूरु मूलं नाम तत्र बेस् आफ् द तै तै यतः आरम्भः भवति ऊरुभागस्य आरम्भः यतः भवति टार्सो अस्ति अस्माकं शरीरस्य ऊर्ध्वभागः अस्ति शरीरस्य अधोभागः ऊरुणः आरम्भः भवति तस्मात् शरीरस्य ऊर्ध्वाधोभागयोः संयोगस्थानम् ऊरुमूलम् इत्युच्यते तत् तदेव वामूरुमूल अर्पित नमस्थापित दक्षपादम् दक्षिणपादम् दक्षिणपादस्य कुत्र स्थापनं करणीयम् वामऊरुमूले यतः वामऊरु वामऊरुणः आरम्भः तद् वामऊरुमूलस्थानम् तत्र प्रथमं दक्षिणपादः स्थापनीयः वामऊरुमूलमस्ति वामऊरुभागः अस्ति तत्र आरम्भस्थानमस्ति औट्सैड् दट् तस्य बहिः दक्षपादः भूमौ दृढं स्थापनीयः वामपादः प्रसारणीयः दक्षिणपादं गृहीत्वा दक्षिणपादः शुड् बि प्लेस्ड् औट्सैड् द वाम ऊरुमूलं भूमौ सम्यक् दृढं न्यस्तव्यः दक्षिणपादः तद् वामपादस्य बहिः स्थापनीयम् अनन्तरं जानोः बहिर्वेष्टित वामपादम् इदानीं जानोः बहिः जानुः अस्ति जानुः नाम इदानीं दक्षिणजानुः अस्ति दक्षिणजानुः अस्ति दक्षिणजानुनः बहिः औट्सैड् इदानीं सी लेफ्ट् लेग् इदानीं प्रसारितमस्ति किल तद् प्रसारित वामपादः किं करणीयः इति चेत् तत् फोल्ड् कृत्वा एतस्य अधः आनेतव्यः दक्षिण ऊरुमूलस्य अधः आनेतव्यः अनन्तरं किं करणीयमिति चेत् तत्र वामः इदानीं शरीरस्य ट्विस्ट् करणीयं परिवर्तिताङ्गः शरीरं किं करणीयं परिवर्तनीयम् इदानीं पुरतः पश्यन् उपविशति एवम् अधुना शरीरम् इदानीं शिरः पृष्ठतः पश्येत् शिरः पृष्ठतः करणीयं तर्हि हस्तद्वयेन किं करणीयम् इति चेत् तत्र वामहस्तेन वामहस्तेन दक्षिण पादमूलस्य दक्षिणपादः स्प्रष्टव्यः दक्षिणहस्तः कुत्र भवेत् इति चेत् वाम ऊरुभागस्य उपरि भवेत् एतत् पूर्णमत्स्येन्द्रासनम् अर्धमत्स्येन्द्रासने किं भवति इति चेत् परिवर्तनसमये पूर्णपरिवर्तिः न भवति अर्धपरिवृत्तिः एव भवति अत्र पूर्णमत्स्येन्द्रासने बहु कष्टमस्ति एतत् तत्र दक्षिणहस्तः शरीरं परितः आगत्य वामजानुनः उपरि वामजानुन वाम ऊरुमूलस्य उपरि तिष्ठति अत्र किं जातम्
एतत् समीचीनं वा पूर्णमत्स्येन्द्रासनम् इति
पूर्णमत्स्येन्द्रासनम् सत्यम् इदानीम् अत्र द्रष्टुम् एतद् दृष्ट्वा एव विवरणं करोमि पश्यतु एषः कथं कृतवान् अस्ति वामोरुमूलार्पित एतत् सः रिवर्स् कृतवान् अस्ति अस्मिन् आसने अन्येन पादेन कृतवान् अस्ति दक्षिण दक्षिण ऊरुमूलम् अस्ति यु केन् सी मै पायिण्टर् तस्य दक्षिणपादः अस्ति किल तस्य दक्षिणपादस्य औट्सैड् हिस् रैट् थै किं स्थापितवान् अस्ति? वामपादं स्थापितवान्. तद् रिवर्स् करोतु. श्लोके किम् अस्ति?
वामोर्मूलार्पित इति अस्ति, दक्षिणापूर्वमूलार्पित इति.
दक्षोर्मूलार्पित वामपादं कृतवान् अस्ति. वामोर्मूलार्पित दक्षपादं, जानोः बहिः वेष्टित वामपादम्. इदानीम् उपरि एकः जानुभागः अस्ति. कस्य जानुभागः अस्ति?
वामपादस्य.
तस्य बहिः औट्सैड् किम् अस्ति? दक्षिणपादस्य जानुः अस्ति. जानोर्बहिर्वेष्टित वामपादं, नाम तस्य बहिरागत्य वाम ऊरुभागस्य अधः दक्षिणपादः अस्ति. औट्सैड् द लेफ्ट् नी, बहिः एव किल. तत् तस्य वेष्टनं कृत्वा दक्षिणपादः वाम ऊरुभागस्य अधः अस्ति. धनोर्बहिर्वेष्टित वामपादम्. अनन्तरं सः परिवर्तिताङ्गः अस्ति. तस्य फ्रेम् इस् इट् फेसिङ्ग् फार्वर्ड् आर् बिहैण्ड्? अतः तदेव परिवर्तित अङ्गः. अवशिष्ट अङ्गं शरीरस्य अपर् पार्ट् अस्ति किल, तद् औट्सैड् अस्ति. इदानीं प्रगृह्य तिष्ठेत् इत्यस्ति. प्रगृह्य तिष्ठेत् इति चेत् गृहीतव्यं. किं गृहीतव्यम् इति चेत्, इदानीं तस्य रैट् हैंड फ्री अस्ति किल, तेन दक्षिणहस्तेन वामपादग्रहणं करणीयं. प्रगृह्य इति उल्लेखः कृतः. तेन कारणेन तेन दक्षिणहस्तेन वामपादः गृहीतव्यः. सो द ट्विस्ट् बिकम्स् स्टिल् मोर् इण्टेन्स्. अत्र सः न कृतवान् तत्. द हेण्ड् इस् जस्ट् फ्री औट्सैड्. सः हस्तं भूमौ अधः स्थापितवान्. तेन हस्तेन किं करणीयम्? The sole of the left feet has to be held. And then, tasya vama hasta hasti kila. Taha sharire veshtya, tasya pariveshtanam krutva. It should come above the right thigh. So, the right hand should hold the left sole. Left hand should come from behind and it should be placed on the right thigh. तदेव पूर्णमत्स्येन्द्रासनं भवति. रैट् हैंड कुत्र अस्ति? भूमौ अस्ति, स्पष्टम्. सो दिस् इस् नाट् अकार्डिङ्ग् टु लक्षणम्. लेफ्ट् हैंड कुत्र अस्ति इति न ज्ञायते. सो सः रैट् हैंड भूमौ स्थापितवान् इति कारणेन लेफ्ट् हैंड विल् नाट् टच्. यदि एतत् क्रियते तत् स्वयं सम्भवति. बिकास् द बाडी वुड् हव् ट्विस्टेड्. सम्यक् तथा तस्य परिवृतिः जाता स्यात्. परदे तत् न कृतम्, अतः प्रायः अनेन न कृतं स्यात्. तस्मात् इदं गृहीतं वा? सः तस्य अदर् सैड् कृतवान् अस्ति. अस्मिन् पार्श्वे यत् कृतं तत् श्लोके विवृतं. ज्ञातं वा? सो पुनः श्लोकं पश्यामः. वामोरुमूलार्पित दक्षपादं, नाम दक्षिणपादः कुत्र स्थापनीयः? वाम ऊरुभागस्य बहिः, ऊरुमूलभागस्य बहिः भूमौ स्थापनीयः. सत्यं वा?
सत्यं.
पादात् बहिः, ऊरुभागात् बहिः स्थापनीयः. अनन्तरं वामपादः तस्य किं करणीयम् इति चेत्, सः तस्य पुटीकरणं कृत्वा दक्षिण ऊरु मूलभागस्य अधः यथा आगच्छेत् तथा करणीयम्. अनन्तरं वामहस्तेन दक्षिणपादः ग्रहीतव्यः. दक्षिणहस्तः शरीरं पृष्ठतः परिवेष्ट्य वाम ऊरुणः उपरि स्थापनीयः. दक्षिणहस्तः वाम ऊरुणः उपरि स्थापनीयः. अनन्तरं तत्र तत् कथम् अस्मिन् अस्यां प्रक्रियायां परिवर्तिताङ्गेन भवितव्यम्. अतः पृष्ठतः पश्येत्, पुरतः आसनस्य आरम्भं करोति. आसनं यदा पूर्णं भवति तदा तस्य शिरः कुत्र पश्येत् इति चेत्, तस्य मुखं पृष्ठतो मुखं तत् भवेत्. इति एतत् पूर्णमत्स्य एतत् मत्स्येन्द्रनाथोदितम् इति उक्तमस्ति. एतद् वस्तुतः पूर्णमत्स्येन्द्रासनम् इत्युच्यते. जनाः प्रायः येषु दिनेषु अर्धमत्स्येन्द्रासनपर्यन्तमेव कर्तुं प्रभवन्ति. मत्स्येन्द्रनाथासनम् मत्स्येन्द्रासनस्य प्रयोजनानि उच्यन्ते. एतद् अवगतं किल? एकं श्लोकं दृष्ट्वा समापयामः. यत्र मत्स्येन्द्र मत्स्येन्द्र पूर्णमत्स्येन्द्रासनस्य प्रयोजनम् उच्यते. मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुक्मण्डलखण्डनास्त्रम् अभ्यासतः कुण्डलिनी प्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम् इति. पुनः श्लोकं वदामि. मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुक्मण्डलखण्डनास्त्रम् अभ्यासतः कुण्डलिनी प्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम्. एकवारं श्लोकं पठतु.
मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुक्मण्डलखण्डनास्त्रम् अभ्यासतः कुण्डलिनी प्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम्.
पदच्छेदं करोतु.
मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुग्मण्डलखण्डनास्त्रम् अभ्यासतः कुण्डलिनीप्रबोधं चन्द्रस्थिरत्वं च ददाति पुंसाम्.
मत्स्येन्द्रपीठं मत्स्येन्द्रपीठपीठशब्दः पीठशब्दः आसनपर्यायः पीठशब्दस्य आसनशब्दस्य च समानार्थः भवति. मत्स्येन्द्रपीठं नाम मत्स्येन्द्रासनं पूर्णमत्स्येन्द्रासनं ददाति. अथान्वयः करणीयः. मत्स्येन्द्रासनं ददाति. कस्य ददाति? पुंसां ददाति. नाम ये ये जनाः पुरुषाः इत्येव न, नाम एतत्तु साधारणशब्दः, नाम समानशब्दः. ये ये अभ्यासं कुर्वन्ति तेषां जनानां कृते ददाति मत्स्येन्द्रासनं. नाम उच्चारणेनैव ददाति वा? आं. मत्स्येन्द्रासनस्य लक्षणश्लोकः कः? मत्स्येन्द्रासनस्य लक्षणश्लोकः कः?
पूर्वश्लोकः.
पूर्वश्लोकस्य पारायणं करोतु प्रतिदिनं. पारायणं करोति चेत् मत्स्येन्द्रपीठं ददाति वा किमपि?
न, साधनेन एव.
अभ्यासतः इति पदं प्रयुक्तं. तत्र एकं वाक्यमस्ति, तत्र शास्त्राण्यधीत्यापि भवन्ति मूर्खाः, यस्तु क्रियावान् पुरुषस्य विद्वान्, सुचिन्तितं च औषधमातुराणां न नाममात्रेण करोत्यरोगम् इति. बहु सम्यक् मेडिकल् प्रिस्क्रिप्शन् अस्ति चेदपि प्रिस्क्रिप्शन् दशवारम् अष्टोत्तरशतवारं प्रिस्क्रिप्शन् पारायणं करोति चेत् रोगनिवृत्तिः भवति वा? न भवति. आपणं गत्वा औषधं क्रेतव्यं, क्रीतम् औषधं गृहं प्रति आनेतव्यम्, उद्घाटनीयं, मुखे स्थापनीयं, तदा अनन्तरं गिलनीयम् अपि. तदा एव औषधं न नाममात्रेण आरोगं करोति. क्रियावान् यः पुरुषः तस्य शास्त्राणि प्रयोजनवन्ति भवन्ति. अतः एव अत्र उक्तं मत्स्येन्द्रासनं ददाति. किमपि किमपि ददाति, बहुविधप्रयोजनानि ददाति. कदा ददाति? अभ्यासतः ददाति. यः अभ्यासं करोति तस्य पुरुषस्य तस्य साधकस्य कृते ददाति. मत्स्येन्द्रासनस्य एकं विशेषणम् अत्र श्लोके उक्तं, प्रचण्डरुग्मण्डलखण्डनास्त्रम् इति. मत्स्येन्द्रासनमेव एकम् अस्त्रम्, आयुधविशेषः. आयुधं किं करोति? खण्डयति किल आयुधम्. इदानीम् असिः अस्ति. असिः नाम खड्गः. खड्गः किं करोति? खण्डयति, कर्तयति. शत्रोः खण्डनं करोति. एवमेव एतत् मत्स्येन्द्रपीठम् अस्त्रमस्ति. किमर्थमिदम् अस्त्रं? खण्डनं करोति एतदस्त्रम्. कस्य खंडनं करोति ऋग् मंडलस्य खंडनं करोति ऋग् शब्दस्य रोगः ऋग् मंडलम् इत्युक्ते रोग समूहः इत्यर्थः रोग समूहस्य कीदृश रोग समूहस्य सामान्य रोगः वा न कीदृश रोगः
प्रचण्डः
प्रचण्डः उग्र उग्र रोगाः अत्यन्तं तीव्राः रोगाः प्रचण्डरोगाणां मण्डलं प्रचण्डरोगाणां समूहः एव अस्ति इति चिन्तयतु तादृशरोगाणां समूहमेव खण्डयितुम् इदम् अस्त्रं भवति किं मत्स्येन्द्रपीठमित्यस्य विशेषणं प्रचण्डरुग्मण्डलखण्डनास्त्रम् इति प्रचण्डरुग्मण्डलखण्डनास्त्रं मत्स्येन्द्रपीठम् अभ्यासतः पुंसां ददाति अभ्यासः यदि अस्य मत्स्येन्द्रपीठस्य क्रियते तर्हि तादृशसाधकानां कृते इदं मत्स्येन्द्रपीठं किमपि ददाति किं ददाति जठरप्रदीप्तिं जठरप्रदीप्तिम् इति चेत् जठरभागः जठरभागे नाम उदर भागे तत्र अग्निः अस्ति तस्य प्रदीप्तिः जठराग्निः इति उच्यते अस्माकं सर्वेषां शरीरे जठराग्निः अस्ति नाम यः एव अग्निः भुक्तमन्नं पचति अन्नं भुञ्ज्महे वयं तदन्नं जठराग्निना एव पच्यते तथा पक्वं तदन्नं शरीरे रसरूपेण रक्तरूपेण मांसरूपेण शुक्ररूपेण शोणितरूपेण सप्तधातुरूपेण परिणमते हा अतः जठरप्रदीप्तिः नास्ति चेत् नाम यदि अस्माकं जठराग्निः सम्यक् न ज्वलति अन्नं भुज्यते परन्तु तन्न जीर्यति इति चिन्तयतु किं भवति अभुक्तम् अन्नम् अजीर्णम् अन्नं शरीरं घातयति भुक्तम् अन्नं सर्वमपि तस्य जरणं भवेत् तत् जीर्णं भवेत् अजीर्णं सत् अन्नं शरीरे तिष्ठति चेत् तदेव रोगनिदानं रोगस्य आदिकारणं भवति यदि अस्माकं जठराग्निः सम्यक् ज्वलति तदा भुक्तमन्नं सम्यक् जीर्यति अन्नं सम्यक् जीर्णं चेत् अस्माकं सप्तधातवः रस रक्त मांस मेदः मज्जा स्नायु एतत् सर्वमपि बलवद्भवति अतः मत्स्येन्द्रासनेन जठरप्रदीप्तिः जठराग्नेः उद्दीपनं जायते एतद् गृहीतं वा अनन्तरं कुण्डलिनी प्रबोधम् इति नाम एतत् तर्हि कथमन्वयः मत्स्येन्द्रपीठं जठरप्रदीप्तिं ददाति इत्यन्वयः अनन्तरं मत्स्येन्द्रपीठं कुण्डलिनीप्रबोधं ददाति कुण्डलिनी नाम अग्रे उच्यते तत्र कुण्डलिनी नाम काचित् शक्तिः अस्माकं मूलाधारे तत्र प्रसुप्ता अस्ति यदा मूलाधारस्य तत्र मेरुदण्डस्य परिवृतिः पुनः पुनः क्रियते तदा किं भवति अभ्यासकारणेन कुण्डलिनी प्रबोधिता भवति कुण्डलिनी शक्तिः यदा प्रबुद्धा सति सुषुम्ना नाड्याम् अग्रे उपरि सञ्चरति तदा तत्र अध्यात्मबोधः उत्पद्यते नाम आत्मनः साक्षात्कारार्थं सः एकः उपायः अस्ति कुण्डलिन्याः जागरणम् अतः मत्स्येन्द्रपीठं जठरप्रदीप्तिं ददाति मत्स्येन्द्रपीठं कुण्डलिनीप्रबोधं ददाति मत्स्येन्द्रपीठं चन्द्रस्थिरत्वं ददाति चन्द्रस्थिरत्वं नाम किं चेत् किञ्चित् तस्य विवरणं करणीयम् इदानीम् अस्माकं तालु अस्ति तालु नाम किं पलट् तालुनः तालु अस्माकं योगशास्त्रानुगुणं तालु भागस्य उपरि कश्चित् चन्द्रः अस्ति तस्मात् चन्द्रात् अमृतं स्रवति तद् अमृतं किं भवति निरन्तरं तत् स्रवति तद् तत्रत्य चन्द्र चन्द्रस्य श्रवणं भवति तत् जठराग्निं प्रविश्य तेन भस्मीक्रियते चन्द्र चन्द्रधारा या तालुनः चन्द्रं चन्द्रः यः अस्ति काचित् आध्यात्मिकी शक्तिः चन्द्रशब्दस्य अर्थः काचित् आध्यात्मिकी शक्तिः अस्माकम् अमृतत्वं दातुं या समर्था तादृशी काचित् आध्यात्मिकशक्तिः तालुनः उपरि भागे अस्ति जठराग्निकारणेन किं भवति इति चेत् तत्र सः चन्द्रः स्रवति स्रवति अनन्तरं जठराग्नौ तद् भस्मी भवति नाम सः चन्द्रः क्रमेण क्षरन् यदा सः चन्द्रः समाप्तः भवति तदा मनुष्यस्य आयुषः समाप्तिः भवति यदि सः चन्द्रः स्थिरीक्रियते नाम कश्चित् चिरं जीवितुम् अर्हति इति कश्चन विशेषः अत्र किञ्चित् योगशास्त्रस्य सूक्ष्मं किञ्चन तत्त्वं नाम योगशास्त्रे चन्द्रशब्दः कञ्चित् विशिष्टं पदार्थं सूचयति स च चन्द्रः तस्मात् चन्द्रात् किञ्चित् द्रवं स्रवति तच्च द्रवं जठराग्निं सम्प्राप्य तेन भस्मीक्रियते परन्तु तेन किं भवति इति चेत् आयुषः ह्रासः भवति तेन यदि चन्द्रः स्रव चन्द्रात् काचित् अमृतधारा निरन्तरं स्रवति तच्च जठराग्नौ भस्मी भवति तदा मनुष्यस्य आयुषः समाप्तिः अपि तेन भवति परन्तु एतादृश मत्स्येन्द्रपीठासनेन किं भवति इति चेत् तस्य चन्द्रस्य द्रवीकरणं स्तब्धं भवति नाम तद्दृढीकृतं भवति स च चन्द्रः तस्मात् धारायाः अमृतधारायाः श्रवणं तत् स्थगितं भवति अतः चन्द्रः स्थिरः चेत् आयुः अपि दीर्घं भवति अतः मत्स्येन्द्रपीठेन जठरप्रदीप्तिः भवति कुण्डलिनी प्रबोधः भवति चन्द्रस्थिरत्वं भवति पुनश्च क्रमेण एतस्य अभ्यासेन उग्राणां रोगाणाम् अपि निवृत्तिः भवति प्रचण्ड रुग्मण्डलखण्डनास्त्रम् इति सो मत्स्येन्द्रपीठ इट्स् बेनिफिट्स् मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्ड रुग्मण्डलखण्डनास्त्रम् मत्स्येन्द्रपीठ increases the jatharanala or the gastric fire and then it removes various all kinds of diseases and then abhyasatah kundalini prabodham by constant practice it also helps in awakening the kundalini shakti and chandrasthiratvam cha dadati pumsa through those who practice it also gives the steadiness of chandra chandrasthiratvam so what is chandra in hatha yoga tradition there see it is stated that above the palate this chandra is located and what happens is when the jatharagni is turned towards that which is the normal course what happens is that the chandra melts and then from that chandra the chandra dhara or the amrita dhara flows and then gets burnt by the jatharagni but in by the practice of this matsyendra pithasana what happens is the alignment of jatharagni with the chandra is changed so that the Jatharagni does not directly affect the Chandra. So in Yoga Shastra, it is said that if the Chandra does not melt, that ensures the longevity of a person. A person will live long if that Chandra is sthira, if it is steady. So that is because this is a twist posture. This is the parivritti asana. Ataha kim jayate jatharagnehe chandrasya cha yaha sakshat sambandhaha saha nivarito bhavati tena karanena chandrasya dravibhavaha tena nivaryate chandraha api tiraha bhavati jivanam api dirgham bhavati iti matsyendra grihasya prayojaneshu idam anyatam evam मत्स्येन्द्रपीठम् उक्त्वा मत्स्येन्द्रपीठस्य प्रयोजनमपि कथितम्. अग्रे पश्चिमतानासनस्य आरम्भः. नवमं तदासनम्, अष्ट आसनानि अस्माभिः पठितानि, नवमं पश्चिमतानासनम् अग्रिमकक्षायां पश्यामः. एकवारं सर्वेषाम् आसनानां चित्रं गृहीत्वा तत्र आसनानां यल्लक्षणम् उक्तमस्ति अस्मिन् ग्रन्थे, तस्य समन्वयः भवति वा इति द्रष्टव्यम्. यत्र एवम् अन्तरे सम्यक् प्रवेश्य इत्यादि अस्ति, तत्सर्वं तत्र सम्यक् अन्वेति वा इति द्रष्टव्यम्. अत्र कोऽपि क्लेशः अस्ति चेत् पुनः पृच्छतु, अहं स्पष्टीकरिष्यामि. मम हस्ते शास्त्रोक्तप्रकारेण कृतानि आसनानि सन्ति, नाम कानिचन चित्राणि मया एकं वर्कशाप् कृतं, कार्यशाला कृता, तदर्थं मया सङ्गृहीतानि चित्राणि सन्ति, तानि प्रेषयामि. तेषु लक्षणसमन्वयं पश्यति चेत् भ्रमः न भवति. अन्यथा नानाप्रकारेण आसनानि क्रियन्ते, तत् भ्रमम् उत्पादयति. एकमेव आसनं विभिन्ननाम्ना विभिन्नप्रकारैः अनुष्ठीयते. अहं प्रेषयामि एकं फैल्, तत्र आसनानां शास्त्रोक्तप्रकारेण चित्रणम् अस्ति. भवतु, अत्र स्थगयामः. श्रियादिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या, विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छो रथिरोहिणीव.